सुभद्राणि च भक्तानां कुरुते पूजिता सदा अपत्रनाशिनीं देवीं सुभद्रां पूजयाम्यहम्। सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्वारंभं करिष्यामि सिद्धिर्भवतु मे सदा।